नमस्सर्वेभ्यः अद्य विभक्तिवर्गे एकादशः पाठः नवम्बर् मासस्य अष्टाविंशः दिनाङ्कः येन क्षम्यताम् रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमूः रामाय तस्मै नमः रामान्नास्ति परायणं परतरम् रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमम् शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो। तृतीया विभक्तेः अभ्यासम् कुर्वन्तः स्मः। तृतीया विभक्तिः करणवाचकस्य भवति। साधकतमं करणम् इत्यनेन करणपदम् उच्यते। साधकतमं क्रियायाः निष्पत्तौ अत्यन्तम् उपकारकं यद्भवति तत् करणं करणवाचकस्य तृतीया विभक्तिः भवति। यथा बालः लेखन्या लिखति, सः दण्डेन ताडयति इत्यादिषु। कर्तृवाचकस्यापि तृतीया भवति। वस्तुतः यदा वयं सूत्राणि पश्यामः तदा एकेनैव सूत्रेण कर्तृकरणयोः तृतीया इत्युच्यते। कर्तृवाचकस्य तथा करणवाचकस्य उभयोरपि विभक्तिः तृतीया विभक्तिः। कुत्र भवति कर्तृवाचकस्य तृतीया विभक्तिः इति ज्ञातुं क्त क्तवतु प्रत्ययोः अध्ययनम् अपि कृतम्। क्त क्तवतु इति कृदन्तप्रत्ययौ, तत्र क्त प्रत्ययस्य योगे कर्तरि तृतीया भवति। तत् पुनः पश्यामः। क्तवतु क्त प्रत्ययोः कः भेदः, किं वा साम्यम्? उभावपि कृत् प्रत्ययौ। यथा वयं ज्ञातवन्तः धातोः द्वेधा प्रत्ययाः भवन्ति। तिङ् तिङ् प्रत्ययाः तथा कृत् प्रत्ययाः इति। अत्र क्तवतु क्त इति उभौ अपि कृत् प्रत्ययौ, किञ्च उभौ अपि भूतकालार्थक प्रत्ययौ। क्तवतु प्रत्ययः अपि भूतकालं बोधयति, क्तप्रत्ययः अपि भूतकालमेव बोधयति। तर्हि कः विशेषः उभयोः? क्तवतु प्रत्ययः कर्त्रर्थकः, क्तप्रत्ययस्तु कर्मार्थकः। अर्थात् क्तवतु प्रत्ययान्तेन शब्देन क्रियायाः कर्ता उच्यते। यथा क्तवतु क्त इत्युभौ अपि प्रत्ययौ धातुभ्यः योज्यन्ते। यत्र धातुः अस्ति तत्र क्रिया भवति, यत्र क्रिया अस्ति तत्र कर्ता कर्म च भवति। क्तवतु प्रत्ययान्तः शब्दः क्रियायाः कर्तारं बोधयति। गतवान्, कः गतवान्? बालः गतवान् अथवा बालिका गतवती, मित्रं गतवत्। क्तवतु प्रत्ययान्तः शब्दः यदा उच्यते तदा तेन कर्तुः एव ज्ञानं भवति, कः गच्छति। किन्तु यदा क्तप्रत्ययः उपयुज्यते, पाठः पठितः, कथा पठिता, पुस्तकं पठितं, पठित इति क्तप्रत्ययस्य श्रवणेन कर्मणः बोधः भवति, न तु कर्तुः। वेन् यु थिङ्क् आफ् पठित, you will not think of who read, what was read. That is the first thing that will be associated with pathita. Pathaha, katha, pustakam, the object. Ateva ktavatu pratyaha kartrarthakaha, ktapratyaha karmarthakaha. Ubhayohu lingatraye rupani bhavanti. Sarvepi kridantaha subantaha. So pratipadikani. So akrut pratyananta is always a pratipadika. तस्मात् सुप् प्रत्ययाः योज्यन्ते। यत्र यत्र सुबन्तत्वं तत्र लिङ्गत्रये अपि रूपस्य सम्भवः भवति अतः उभयोः लिङ्गत्रये रूपाणि भवन्ति किन्तु क्तवतु प्रत्ययान्तः शब्दः कर्तुः लिङ्गं वचनं विभक्तिं च अनुसरति बालः पठितवान् बालिका पठितवती मित्रं पठितवत् सो कर्तुः लिङ्गम् अनुसरति बालः पठितवान् बालौ पठितवन्तौ बालाः पठितवन्तः कर्तुः वचनम् अनुसरति विभक्तिं पठितवन्तं बालं पश्य पठितवते बालाय देहि पठितवतः बालात् स्वीकुरु अतः कर्तुः विभक्तिमपि अनुसरति इट् कम्प्लीट्लि फालोस् द कर्ता इन् लिङ्ग वचन विभक्ति जस्ट् लैक् अ विशेषण क्तवतु प्रत्ययान्तं कर्तुः विशेषणम् क्तप्रत्ययान्तशब्दः तु कर्मणः लिङ्गं वचनं विभक्तिञ्च अनुसरति यथा पाठः पठितः कथा पठिता पुस्तकं पठितम् कर्मणः लिङ्गम् अनुसरति पाठः पठितः पाठौ पठितौ पाठाः पठिताः कर्मणः वचनम् अनुसरति पठितं पाठं पुनः पठ एण्ड् देन् वाट् पठिते पाठे इच्छा नास्ति एवं कर्मणः विभक्तिमपि अनुसरति सो कर्मणः विशेषणं क्तप्रत्ययान्तः शब्दः कर्तुः विशेषणं क्तवतु प्रत्ययान्तः शब्दः सर्वासु विभक्तिषु प्रयोगः भवति यथा दर्शितं किन्तु अस्माभिः प्रायः प्रथमाविभक्तौ यदा प्रयोगः क्रियते तदा कर्तृपदं प्रथमाविभक्तौ भवति क्तवतु प्रत्ययस्य प्रयोगे बालः पठितवान् किन्तु क्तप्रत्ययस्य प्रयोगे कर्तृपदं तृतीयाविभक्तौ भवति बालेन पठितः बालः पाठं पठितवान् बालेन पाठः पठितः कर्तृपदं क्तवतु प्रत्ययान्तस्य योगे प्रथमाविभक्तौ भवति क्तप्रत्ययान्तस्य योगे कर्तृपदं तृतीयाविभक्तौ भवति क्तवतु प्रत्ययस्य प्रयोगे कर्मपदं द्वितीयाविभक्तौ बालः पाठं पठितवान् तप्रत्ययस्य प्रयोगे तु कर्मपदं प्रथमाविभक्तौ बालेन पाठः पठितः उदाहरणं बालः पाठं पठितवान् बालिका पाठं पठितवती तप्रत्यये तु बालेन पाठः पठितः बालिकया पाठः पठितः बालेन कथा पठिता बालिकया कथा पठिता इत्यादीनि उदाहरणानि केऽपि प्रश्नाः सन्ति वा क्तवतुक्तप्रत्यययोः प्रयोगे मोहनन् वेङ्कटाचलं महोदय डू यू हेव् अ क्वश्चन्
you can hear me?
Yes.
Okay. Because it was written here, audio not connected, so I had a doubt.
Okay. No, I can hear you.
So, okay. Thank you.
इदानीम् एकम् अभ्यासं कर्तरि तृतीया इति दृष्टं सो तप्रत्ययान्तः एकम् उदाहरणमात्रं तप्रत्ययान्त इस् नाट् द ओन्ली केस् वेर् यु हाव् कर्तरि तृतीया यत्र यत्र कर्मार्थकः प्रत्ययः भवति तत्र सर्वत्र कर्तरि तृतीया भवति तप्रत्ययः उदाहरणमात्रत्वेन स्वीकृतं बिकास् इट् इस् वन् आफ् द ईजियेस्ट् अण्ड् द मोस्ट् पाप्युलर्ली यूस्ड् किन्तु यत्र यत्र कर्मार्थकः प्रत्ययः भवति तत्र तत्र कर्तरि तृतीया भवति यथा बालेन पाठः पठितः सो तप्रत्ययः कर्मार्थकः अतः कर्तुः तृतीया एवम् अनियर् बालेन पाठः पठनीयः द लेसन् शुड् बि रेड् बै द बाय् बालेन पाठः पठितव्यः सो पठितव्य तव्य अनियर् दे आर् आल्सो कृत् प्रत्ययास् they are also karmarthakas. That is, they indicate the object. So, pathaniya always refers to the object which is to be read, not by whom. It is always what, kim, pathaha pathaniyaha, katha pathaniya, pustakam pathaniyam. Purvameva prathama vibhaktaveva abhyasaha krutaha aniyartavya ityetayoho. Tepi karmarthaka, tau api karmarthakau pratyayau. Lakare api karmani lakaraha bhavanti. Yatha vayam pathati iti vadamaha saha kartari lakaraha. So the lakara itself indicates the karta. Pathati means it is somebody else. Pathami means the person who reads is I. Pathasi, the person who reads is you. Okay, so it refers to the karta. Kintu karmani lakaraha bhavanti. Sarve lakaraha. Karmani lat, karmani lot, karmani lang. Sarve lakaraha karmarthe api bhavanti. Yada karmani lakaraha bhavanti. Tada punaha kartrupadam tritiya vibhaktau bhavati. Malena pathaha pathyate. The lesson is studied by the boy. So that is what we call the passive voice. All these are passive usages. So a passive usage is nothing but that where the focus is not on the karta, but on the object or on the action itself. Ramanujan Mahodaya, Prashna Hatya?
No, nasti. Shamyata.
Idanim, ekah abhyasah, puramapi asya abhyasasya anyadrupam drishtam. Atra patha iti dhatuhu. Shat rupani santi. Pathati iti latlakaraha kartrarthakaha. Pathishyati iti dritlakaraha bhavishyatkalaha kartrarthakaha. Pathitavat iti bhutakalaha kartrarthakaha. So all these in green, they are the kartrarthaka pratyayas, which means that the pratyaya is referring to the karta, which means, remember, Kartapada is in Prathama Vibhakti, Karmapada is in Dvitiya Vibhakti. Whereas these three are Karmarthaka Pratyayas. Pathita iti Bhutakale Karmarthaka Pratyayah. Pathaniya Pathitavya iti Vidhyarthe. Karmarthakau Pratyayo. Okay, so all those in yellow, they are the karmarthaka pratyayas, which means the kartrupada is in tritiya vibhakti and the karmapada is in prathama vibhakti. For example, aham is the karta and patha is the karma. So aham patham pathami. Kartrupadam prathama vibhaktau, karmapadam dvitiya vibhaktau. Aham patham pathami. Aham patham pathishyami. Aham patham pathitavati. Okay, so in all cases, kartrapadam prathama vibhaktau, karmapadam dvitiya vibhaktau. Kintu atra, maya pathaha pathitaha, maya pathaha pathaniyaha, maya pathaha pathitavyaha. So since these are karmarthaka pratyayas, kartrapadam tritiya vibhaktau bhavati, karmapadam prathama vibhaktau bhavati. Okay, evam etaihi shabdaihi vakyani rachaniyani. Tatra prashnaha, ekaha prashnaha asti, is passive voice and middle voice the same? In some old books I saw only active voice and middle voice, there was no reference to passive voice. I don't know, I mean, maybe I have never heard of a middle voice. I have always, maybe I have not seen those books, I have referred to the voice as passive and active. So, anyway, I mean, they are just, you know, rough approximations to what we have in Samskrita. In Samskrita, we have three prayogas. Prayoga is a rough thing of voice. So, there is kartari, karmani and bhave. So, kartari is where the pratyaya, the kriyapada, I mean, the pratyaya on the dhatu refers to the karta. Whereas, karmani is where it refers to the karma. Bhave is where it refers only to the action, there being no karma. So, if there is no karma, it is bhave prayoga. If there is a karma pada, we can have kartari karmani. Okay. इदानीं अभ्यासं कुर्मः. राधिका
बालः फलं खादति, बालः फलं खादिष्यति, बालः फलं खादितवान्, बालेन फलं खादितम्, बालेन फलं खादनीयम्, बालेन फलं खादितव्यम्.
सम्यक्. नेक्स्ट् शिवराम कुलकर्णी. हरिः ओम्. न श्रूयते. I cannot hear you, sir. Rav Mahode.
Yeah, can you hear me?
Yes.
Hari Om.
Ha.
Devi. Mantran.
Manapati. Mantram. There is ekavachan. Ha.
Devi mantram japati. देवी मन्त्रं जपिष्यति. देवी मन्त्रं जपितवती. देन् दि नेक्स्ट् वन् इस् वाट् वी आर् सपोस् टु बि वित् पेसिव् वाय्स् फर् दि नेक्स्ट् वन्.
देव्या
देव्या मन्त्रं
मन्त्रः
मन्त्रः japita
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 japita. The in karmani it refers to the karma. Karma is mantra. Mantraha japan japita.
So mantra is magna.
Yes.
Okay, I don't know that. Okay. Mantraha devya japaniyaha. मन्त्रः देव्या जपितव्यम्.
जपितव्यः
जपितव्यः.
देव्या मन्त्रः जपितः. देव्या मन्त्रः जपनीयः. देव्या मन्त्रः जपितव्यः.
सो आल् दि त्री जपितः जपनीयः जपितव्यः देर् आल् रिलेटेड् टु मन्त्रः विच् इस् पुल्लिङ्ग.
यस्.
So Devya is common for all the three.
Yes, so it doesn't matter because they are karmarthakas. They depend only on the karma. It doesn't matter what is the karta.
Okay, thank you. Hari Om.
Lakshmi.
Dikshakah diksham yachanti. Dikshakah diksham याचिष्यन्ति. भिक्षुकाः भिक्षां याचितवन्तः. भिक्षुकाः भिक्षुकैः भिक्षा याचिता. भिक्षुकैः भिक्षा याचनीया. भिक्षुकैः भिक्षा याचितव्या.
सम्यक्. भिक्षुकैः भिक्षा याचिता याचनीया याचितव्या. वैद्यनाथन्.
वयं ग्रामः गच्छामः.
ग्रामं
वयं ग्रामं गच्छामः. वयं ग्रामं गमिष्यामः. वयं ग्रामं गतवन्तः. अस्माभिः ग्रामः गतः. अस्माभिः ग्रामः गमनीयः. अस्माभिः ग्रामः गन्तव्यः.
सो अस्माभिः ग्रामः गतः गमनीयः गन्तव्यः. सो सर्वत्र कर्तृपदं तृतीया विभक्तौ. अस्माभिः ग्रामः गतः. अस्माभिः ग्रामः गमनीयः. अस्माभिः ग्रामः गन्तव्यः. मलकोण्डय्य.
हरि ओम्। पितामही कथाः एकवारं वदतु महोदय प्रथमं
कथयति पितामही कथाः कथयति
ओ पितामही कथाः कथयति पितामही कथाः कथयिष्यति
कथयिष्यति
कथयिष्यति पितामही कथाः कथितवती कथिताः
बहुवचने अस्ति
कथिताः पितामह्या
कथाः कथिताः इट् इस् नाट् द्वितीया प्रथमा विभक्तौ एव भवति कर्मपदम्
ओके पितामह्या कथाः कथनीयाः पितामह्या कथाः कथितयत्याः
कथयितव्याः पितामही कथाः कथयति पितामही कथाः कथयिष्यति पितामही कथाः कथितवती सर्वत्र कर्तृपदं प्रथमं पितामह्या कथाः कथिताः पितामह्या कथाः कथनीयाः पितामह्या कथाः कथयितव्याः कर्तृपदं तृतीया कर्मपदं द्वितीया वा प्रथमा वा इति न ज्ञायते इफ् इट् इस् स्त्रीलिङ्ग बहुवचन यू विल् नाट् नो द डिफ्रेन्स् बिट्वीन् प्रथमा एण्ड् द्वितीया बहुवचन रामानुजन्
नमस्ते चोराः सुवर्णं चोरयन्ति चोराः सुवर्णं चोरिष्यन्ति चोराः चोरयिष्यन्ति क्षम्यतां चोराः सुवर्णं चोरितवन्तः चोराः सुवर्णं चोरितम् चोरैः सुवर्णं चोरितम् चोरैः सुवर्णं चोरणीयम् चोरैः सुवर्णं चोरितव्यम्
चोरयितव्यम्
No, we regret these kind of statements.
Huh?
Samyak nasti because we don't want them to steal.
Yeah, same. So, Shabda Pramana Kaha Vayyakarana Iti Asmakam Samadham. So, that's just a thing which is there, but I mean, just for gist, says that Vayyakaranas are concerned only with Shabda and not with Artha. Okay. So, and there is also the reverse with regard to tarkikas. Asmakonam tarkikesham artharyevana shabdari. So, everything is wrong. That is, all shabdas are wrong there. But still you understand the meaning. Asmakonam, it should be asmakam. So, for us tarkikas, it is only in the artha, the meaning, which is pradhana and not the shabda. So, it's a, you know, I mean, a comic confrontation between Vayyakaranas and Tarkikas. So, if there are any examples which are not suitable, I can always take resort to me being a Vayyakarani. Okay. So, next. Mahadevan.
त्वया घटी दत्ता Danya.
Hmm. Correct.
Svaya ghati daniya.
Hmm.
Svaya ghati datavya.
Ah. So, tvam ghatim dadasi. Tvaya ghati datta. Tvaya ghati daniya. Tvaya ghati datavya. Next, Gita Ramachandran.
Mm-hmm. Ashwaha jalam pibati. Ashwaha jalam pasyati.
Mm.
Ashwaha jalam pitavan.
Mm.
Then Ashwaha
Ashwena. Jalam,
Ashwena, sorry. Ashwena jalam pita
jalam
ashwena jalam pitam.
Mm.
Ashwena jalam paniyam.
Mm.
Ashwena jalam patavyam.
Mm. Balachandran Radhakrishna.
Gaikaha.
Mm.
गीतानि गायन्ति.
Hmm.
गायिकाः गीतानि गास्यति.
गास्यन्ति.
गास्यन्ति.
Hmm.
गायिकाः गीतानि गीतवन्तः.
गीतवत्यः.
गीतवत्यः.
Hmm.
गायिकाभिः.
Hmm.
गीतानि गीतानि गीतानि
गीतानि गीतानि
गीतानि गीतानि गायिकाः गीतानि गानी गानीया
गानीयानि
गानीयानि गायिकाः गीतानि गातव्यानि.
गायिकाभिः गीतानि गातव्यानि.
गायिकाभिः गीतानि गातव्यानि.
हरीश.
गणेशः कथां लिखति. गणेशः कथां लिखितवान्. गणेशः कथां लेखिष्यति. गणेशेन कथा लिखिता. गणेशेन कथा लेखनीया. गणेशेन कथा लेखितव्या.
सम्यक्. शर्मा. हरि ओम्. शर्मा महोदय.
श्रूयते?
हाँ श्रूयते.
गौरी चित्राणि पश्यति. गौरी चित्राणि दृष्टवती. गौरी चित्राणि द्रक्ष्यति.
द्रक्ष्यति.
गौर्या चित्राणि दृष्टानि. गौर्या चित्राणि दर्शनीयानि. गौर्या चित्राणि द्रष्टव्यानि.
सम्यक्. So this just this the these two columns have been changed. Actually this Lakshati Shoshati should be in this column and the Kavatu should be here. But I'll change it later. Okay. Mohanan.
Shudhava.
Mm.
Aham Vartam Shrunomi.
Mm.
Aham Vartam Shrutavan.
Mm.
Aham Vartam Shroshyami.
Mm.
Maya.
Mm.
Varta.
Mm.
Shruta.
Mm.
Maya Varta Shravaniya.
Mm.
Maya Varta श्रोतव्या.
सम्यक्. वेङ्कटेशन्.
हरि ओम्.
वदतु.
वृद्धः युतकं धरति. वृद्धः युतकं धृतवान्. वृद्धः युतकं धरिष्यति. वृत्तेन युतकं धृतम्. वृत्तेन युतकं धरणीयम्. वृद्धेन युतकं धर्तव्यम्.
सम्यक्. Anybody else who have not tried so far? Please volunteer. Shivaram, Kulkarni. Na Shruyate Adya. Any problems with microphone, probably? Because, yeah. Usually, I am able to hear you. Adya na Shruyate. अस्तु. वेङ्कटेश्वरन् गोपाल.
वाचकाः तण्डुला पचन्ति.
तण्डुलान् पचन्ति.
वाचकाः तण्डुलान्
पक्ववन्तः.
पक्ववन्तः वाचकाः तण्डुलान् पक्ष्यन्ति. पाचकैः
तण्डुलाः
पाचकैः तण्डुलाः पक्वाः.
तण्डुलाः पचनीयाः.
पाचकैः तण्डुलान् पक्तव्या.
तण्डुलाः तत्र सर्वत्र प्रथमाविभक्तौ कर्मपदम्. पाचकैः तण्डुलाः पक्वाः. पाचकैः तण्डुलाः पचनीयाः. पाचकैः तण्डुलाः पक्तव्याः. तण्डुला इज रैस्. पाचक इज अ कुक्. पाल्, सारी ऐ फॉरगॉट.
ओके. सो रामः राक्षसान् रामः राक्षसान् जयति.
रामः जयति.
रामः राक्षसान् जायते. रामः राक्षसान् जितवान्. रामः राक्षसान् जेष्यति. रामेण राक्षसाः जिताः. रामेण राक्षसाः जायनीयाः. रामेण राक्षसाः जेतव्याः.
सम्यक्. Anybody else? Those who have not tried so far, please volunteer. Harmandar Singh.
छात्राः
लेखन
लेखन्यः
लेखनीः
लेखनीः क्रीणन्ति छात्राः लेखनीः क्रीतवन्तः छात्राः लेखनीः क्रेष्यन्ति छात्रैः
छात्रैः
छात्रैः लेखन्यः क्रीताः छात्रैः लेखन्यः क्रयणीयः छात्रैः लेखन्यः क्रेतव्यः
सम्यक् श्रीकान्त you have to unmute yourself
अक्षम्यतम्
त्वं
पुस्तकानि नयसि त्वं पुस्तकानि नीतवान् त्वं पुस्तकानि नेष्यसि त्वया पुस्तकानि नीतानि त्वया पुस्तकानि नयनीयानि नयनीयानि आम् नयनीयानि त्वया पुस्तकानि नेतव्यानि
सम्यक् द लास्ट् वन् एनिबडी Anybody who has not tried so far? Shri Priya?
Putraha Ambam Putraha Ambam Smaranti पुत्राः अम्बां स्मृतवन्तः पुत्राः अम्बां स्मरिष्यन्ति पुत्राः पुत्रैः अम्बा स्मृताः
स्मृता
पुत्रैः स्मृता पुत्रैः अम्बा स्मरणीया पुत्रैः अम्बा स्मर्तव्या
सम्यक् सो अनेन कर्तरि तृतीयायाः प्रयोगस्य विषये किञ्चित् ज्ञातम् अत्र कश्चित् प्रश्नः नौ दट् यु हव् इन्ट्रोड्यूस्ड् तवतु एण्ड् अनियर् आर् यु प्लानिङ्ग् टु इलाबरेट् अ लिटिल् बिट् आन् दीस् फार् अर् बेटर् अण्डर्स्टाण्डिङ्ग् ऐम् सारी ऐ थिङ्क् दट् इस् औट् आफ् द स्कोप् आफ् दिस् पर्टिक्युलर् कोर्स् बिकास् ऐ आर् कान्सन्ट्रेटिङ्ग् आन् द विभक्ति सीन्स् ऐ ब्राट् इन् कर्तरि तृतीया ऐ हेड् टु यु नो कम्पल्सरिली गिव् सम् नालेज् आफ् द कर्मार्थक प्रत्ययस् So which is why we did a bit of ta and tavatu, which may be practically pretty useful. But I think beyond this, we'll have to be a session on the Kridantas themselves. So we are planning to have a course on the Kridantas. So when we have that, we can definitely go into more detail regarding the usage of the different Kridantas. Okay. Mohanan, Mohare, Prashna Hastiva.
अस्ति वट् इस् एक्साक्ट्लि अन्तरं
between Pataniya and Patisavya. Pataniya, do you have to read?
Nothing. No difference in meaning.
Okay. Meaning, there is no difference.
There is no difference. Just the form is different. That's all.
Prayoga and Dharam.
Rao Mohanaya, Prashna Hastiva.
Yeah, I have a question. You just now you said there is no difference in Pataniya and Patitavya, but can we use them as we want, or are there any restrictions as to when each one should be used?
So, I mean, specifically you can use Aniyar or Tavya anywhere. I mean, as long as their meaning is intended, the meaning of Vidhi, that something that has to be done or deserves to be done. But I mean, everywhere where you use Aniyar, you can use Tavya. Okay. So, there is no difference in meaning at all. Wherever you use an ear, you can use tavya. Okay.
Not like certain dhatus take an ear.
No. All dhatus take both an ear and tavya. Okay. So they are general pratyayas. So everywhere, if you have a form in an ear, you will have a corresponding form in tavya. Both of them can be used.
So, and both of them will be used in the karmarthaka.
Yes.
Okay. Thank you.
Yeah. There's one question: is Aniyar could be and Tavya should be? No, there is no difference. I mean, both of them can be used in the same sense. They have the same sense, and their sense is not just one. It can be, should be, and deserves to be, which just is. So they are used in a range of meanings. But all meanings of Aniyar also hold good for Tavya. You cannot distinguish between those two pratyayas in meaning at all. So, wherever you use Aniyar, in the same sense, you can also use Tavya. Okay. There's one more question. If we have to use Aniyar in Kartari, we have to use Lot. Yeah, I mean, Aniyar and Tavya are both compulsorily Karmarthakas. So, a Kartari or the active usage will have either Lot or Vidhilinga. Okay. So either Lot or Vidhilinga can be used in case of the active. Okay. So there is no equivalent form. Yeah. I mean, it's just the same meaning can be conveyed in active sense by Lot or Vidhilinga. Lot and Vidhilinga, they carry the same meanings. Okay. So, and there's one more question. Is future tense always in Kartari Prayoga? No, not necessarily. It can also be in Lekhishyate. Maya Katha Lekhishyate. A story will be written by me. Maya Pathaha Patishyate. The lesson will be studied by me somewhere in the future. So it can be in the passive also. Okay. Vaidyanathan Mahodaya, Prashna Hastiva.
Karmala Dhatunam Karta Itta Pratyaya Karta Yabhi Yoyanga
Pratyaya. Okay, somewhere where I didn't want to go. Yes, there are dhatus where no, it's fine. I mean, there's nothing wrong in asking. There are certain dhatus where we can use the Kta Pratyaya in Kartari. So I did not go into it purposely because I didn't want to confuse you. So for those who are doing this for the first time, just have it in mind that Ktavatu is Kartari and Kta is Karmani. But yes, there are cases where Kta Pratyaya can be used in the sense of Karta. Saha Gataha, Saha Agataha, Saha Gramam Gataha, Saha Gramam Gatavan, equivalent usages. You can also have it in Karmani. Tena Gramaha Gataha, that is always there. Karmani is always there. But for very specific dhatus, it can also be used in Kartari. That we will know through practice. Okay, I don't want to go into details of it because it will simply end up confusing most of the people. Okay, yeah. There is one question. Sharma Mahodaya, I didn't understand your question. Kimartam Nishtha Samya? Kim? हरि ओम शर्मा महोदय हाँ कहा प्रश्न है
It is not a question. What I want to know is, a sanya is given in the sutras,
yes.
These two.
Hmm.
Do other sutras refer to this sanya?
Oh, yes, definitely. Lot of sutras are there. Radabhyam nishthato naha, and so on. So, if there is repa or dakara, the nishtha natva, takara gets converted to nakara. And so on. So there are many sutras which refer. Wherever there is a samya, there definitely will be sutras which refer to it. There are no simple samyas in Panini.
Okay, thank you.
Vaidyanathan Mohode. Any other
questions?
Okay. Any other questions? Venkateshwaran Mahalaya.
Madam, Pataniya Patitavya, they refer to Lot Lakar, other persons, they are not referring to persons,
no.
But they are, you say it is passive voice, but it is imperative, it conveys an imperative sense of how we take it.
Infinitive meaning?
Imperative.
Yeah, imperative. Yes. They are both as vidyarthaka pratyayas. It is the imperative and they don't convey any kala. See, then in Samskrita, there are both kala vachakas and bhava vachakas. So they do not take any tense. I mean, not present, not past, not future. They just convey the meaning of kala. I mean, bhava, which is the vidhi, order or request or any of those. The vidhi. As you said, the imperative. They are like lot or vidiling, they are imperative pratyayas. Astu. Tritiya vibhakti. So just to bring us back to the track. Karanamasakayabhyaha tritiya vibhakti bhavati. Yatha hastena khadati, dandena tadayati, ityadi. Bhavavasakayabhyaha tritiya bhavati. Yatha kopena vadati, dukhena roditi. इत्यादि कर्तृवाचकेभ्यः तृतीया भवति बालेन खादितं बालिकया लिखितं इत्यादि इदानीं उपपद तृतीया सो एज वी नो द वन केस ऑफ तृतीया और ऑल विभक्तिस गो वे गोइंग बैक टू द बेसिक सो ए विभक्ति कैन कन्वे द रिलेशन विथ क्रिया इट कैन कन्वे द रिलेशन विथ अदर पदार्थस It can also convey a relation with other words. That is, the presence of specific words in a sentence can lead to a particular vibhakti. So, in this case, we call it as the upapada tritiya. The most common usage of upapada tritiya is with the word saha. Right? Saha ityasya prayoge tritiya vibhakti bhavati. Ramena saha sita vanam gatavati. Sita went to the forest with Rama. So, Saha gives the meaning of along with or with. Okay. So, the speciality of this is not only this word Saha, but also the other meanings. There are other words, synonyms of Saha. So, even with them, we use Tritiya. Okay. Sakam is one such. Krishnena Sakam Arjunaha Yuddhaya prasthitavan. Arjuna prasthita left for war along with Krishna. Krishnena sakam Arjunaha yuddhaya prasthitavan. Sardham is another word. All these are avyayas. Saha, sakam, sardham, samam iti. Chatvari avyayani, indeclinables. So their usage, their form will not change. So, sardham, duryodhanena sardham, karnaha agatavan. Karna came along with duryodhana. So, duryodhanena iti tritiya vibhakti. Draupadya samam sarve pandavaha upasthitaha. So, there is a visarga missing. It should be there. So, all pandavas were present along with draupadi. Draupadya samam sarve pandavaha upasthitaha. So, these four are synonyms. सह साकम सार्धम समम इन एसोसिएशन विथ ऑल ऑफ दीज वी हैव तृतीया विथ हूम सो दैट विल बी इन तृतीया विभक्ति द स्पेशलिटी इज इवन इफ यू डोंट यूज एनी ऑफ दीज वर्ड्स इफ दैट मीनिंग ऑफ सह what we call the sahartha. So even if you just omit this and say Ramena Sita Vanam Gatavati, it means Sita went to the forest along with Rama. Okay, so the Tritiya Vibhakti itself indicates the meaning of along with. So Aham Api Tvaya Agachami, I will also come along with you. So even without any of these words, Tritiya Vibhakti can be used to indicate the sense of Saha. Okay, so sahārthena yoge, so in association with saha or its synonyms or just the implied meaning of saha, even if you don't explicitly state it in the sentence, we have tritiya vibhakti. Okay, so this is one of the most common usages of the word saha. Prashna hasti va Harmandar Singh?
It's a minor, I think, the fourth one. I was wondering whether it is Draupadya Samam Sarve Pandavaha Upasthitaha?
Yes.
Or just
Upasthitaha. I said that's a typing error. Oh. Yeah.
My clarification.
Yeah. Okay. So, Vaidyanathan Mahodaya, Prashna Hasti.
Okay.
So there's one more. I thought only with Napumsakalinga we can use without Saha. No, there's no such thing. It just says Sahartena Yoga Tritiya Bhavati is the Sutra Artha. So even without this one, the Saha, it's just the meaning. The implied meaning of Saha also governs Tritiya, whatever we use. Okay. So Saha, its synonyms, or the context of Saha, we can use Tritiya Vibhakti. Yes, Ramena Sita Gatavati is correct. Krishnena Arjunaha Yuddhaya Prasthitaha. Everywhere you can simply omit it. It also conveys the same meaning. It depends on context. I mean, why we have all the different synonyms is where, I mean, it's just there. So you can use any of them alternately. Okay. So there are exercises. But I'm sorry that I'll stop here today. My daughter is in a, you know, she's not in a very good mood. So I'll just have to go today. So we'll continue with Tritiya Vibhakti and complete Tritiya Vibhakti in the next class. There are a few cases of Upapada Vibhaktis where we use Tritiya and some other special usage of Tritiya. So with those, we will conclude in the next class. Okay. रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमूः रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो. There seem to be a couple of questions. Mohanan Venkatasalam.
Is that other class still going on? Tinganta Pratyaya Karapagana.
Yes, it is going on, sir. Tomorrow, Sunday morning, 5:30.
गीता
रामचंद्रन कः प्रश्नः
सो जस्ट एज यू सेड मया इज इंक्लूडेड एज वेल बिकॉज इट्स अ सिनोनिम हाउ आई एम सॉरी त्वया सो माय क्वेश्चन
इज नॉट इंक्लूडेड व्हाट आई मेंट वाज even without any synonyms of saha, just the tritiya vibhakti can be used to indicate the meaning of with. So tvaya is okay. Not a synonym of saha. It means that along with you. So the tritiya vibhakti okay. Is the sense of with you. Yeah.
So then similarly, can you use maya?
Yeah, anything in tritiya you okay. Can use. Tvam maya agacha. Come with me. Okay. Maya gacha simply means come with me.
Okay. Okay. Thank you.
Yeah. Okay. So we'll stop here. Dhanyavaad.